ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये. सरस्वती नमस्तुभ्यं वरदे कामरूपिणी. विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा. ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीमुपास्महे. श्रीहरये नमः. गुरुभ्यो नमः. हरिः ओम्.
धन्यवाद भगिनी. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानः विषयः अस्ति तत्र सर्वनामशब्दाः इति. सर्वनाम्नः अभ्यासः गतवर्गे अपि जातः. तत्र सर्वनामशब्दः कः इत्युक्ते, तत्र इदं शब्दस्य पुल्लिङ्गरूपाणि अपि नपुंसकलिङ्गरूपाणि तत्र गतवर्गे दृष्टवन्तः वयं. तत्र सुजाता भगिनी तत्र कोष्टकम् अस्ति, तत्र पेज् 51 मध्ये तत्र इदं शब्दस्य पुल्लिङ्गरूपाणि एकवारं पठति वा भगिनि?
आम् महोदय.
नमस्ते महोदय. महोदय
ललिता भगिनी नमस्कारः. भगिनी नमस्कारः, इदानीं श्रूयते भगिनि. शोभा भगिनी नमस्कारः.
नमस्ते महोदय.
नमस्कारः भगिनि. अस्तु सुजाता भगिनी.
प्रथमा विभक्ति अयम् इमौ इमे. द्वितीया विभक्ति इमम् इमौ इमान्. तृतीया अनेन आभ्याम् एभिः. चतुर्थी अस्मै आभ्याम् एभ्यः. पञ्चमी अस्मात् आभ्याम् एभ्यः. षष्ठी अस्य अनयोः येषां. सप्तमी अस्मिन् अनयोः येषु.
हा, बहु समीचीनं भगिनि, धन्यवादः. अत्र तत्र अयं, तत्र सः अपि एषः इति तादृशं तत्र एतत् सर्वनामशब्दः अस्ति. अतः तत्र सः एषः इति अर्थे एव अस्ति. तत्र अयं नाम एषः अथवा सः. अपि तत्र इमो नाम तौ. सः तौ ते यथा अस्ति, तत्र अयम् इमौ इमे इति अस्ति. अतः तत्र सः बालकः इति स्थाने अयं बालकः. हा, तौ बालकौ इति स्थाने इमौ बालकौ. अपि ते बालकाः इति स्थाने इमे बालकाः इति भवति. अस्तु, समीचीनं, धन्यवादः भगिनि सुजाता भगिनी. इदानीं तत्र एकम् तत्र वाक्यं, तत्र विभक्तिम् उपयुज्य वाक्यं वदतु. तत्र उषा भगिनी, तत्र द्वितीयविभक्तौ तत्र भवती वाक्यं करोति वा? द्वितीया विभक्ति तत्र इमम् इमौ इमान् इति. इमम् इति किमपि वाक्यं वदतु.
इमं पुस्तकम् इमौ.
न इमम् इमं तत्र इदं शब्दस्य इदानीं तत्र लिङ्गं किम्?
इदं पुंलिङ्ग अस्ति महोदय, द्वितीया.
अतः तत्र किन्तु भवत्याः वाक्यं किम् आसीत्?
कर्मपदम् अस्ति न महोदय, इमम् इति.
अस्तु, हा, अस्तु, समीचीनम्, इमम् इति. तदनन्तरं किम् उक्तवती भवती?
पुस्तकम् इति उक्तवती.
अस्तु, तत्र अस्तु, वाक्यं वदतु. इमं किम्? इमं पुस्तकं किम्?
इमं पुस्तकम् अस्ति.
तत्र कर्मपदम् अस्ति इति अस्ति, तत्र कर्मपदं अस्तु. अतः वाक्यम् अस्तु, तत्र चिन्तनं कृत्वा वदतु भगिनि. हा, अस्तु, तत्र अग्रे तत्र नरेश महोदय तृतीयविभक्तेः रूपं चिन्तयतु. महोदय नरेश महोदय अपि. हा, प्रिया भगिनी चतुर्थी विभक्तेः वाक्यानि चिन्तयतु भगिनि. अस्तु, ललिता भगिनी षष्ठी विभक्तेः वाक्यानि, अपि शोभा भगिनी सप्तमी विभक्तेः वाक्यानि. तत्र इदं शब्दस्य पुल्लिङ्गरूपे, पुल्लिङ्गरूपाणि.
अस्तु महोदय.
अस्तु अस्तु, तर्हि इदानीं हा वदतु महोदय. नरेश महोदय, हा, तृतीयविभक्ति. हा,
अहम् अन्येन मित्रेण सह पठामि.
हा अहम् अनेन मित्रेण सह पठामि. समीचीनं. हा द्विवचने अथवा बहुवचने तत्र प्रायशः महोदय. हा तत्र मित्रम् इति तत्र नियतलिङ्गपदम् अस्ति, किन्तु तत्र अन्यत् प्रायशः तत्र यदि स्थापयति तत्र विशेषणविशेषभावः अस्ति इति कृत्वा तत्र नपुंसकलिङ्ग. हा मित्रम् इति सर्वदा नपुंसकलिङ्गे एव भवति. समीचीनमेव वाक्यं, समीचीनमेव, तत्र दोषः नास्ति, किन्तु यदि पुल्लिङ्गपदं तत्र भवति चेत् समीचीनं भवति. हा
अहम् अनेन सहोदरेण पठामि.
हा समीचीनं. हा
अहं आभ्यां बालकौ पश्यामि.
बालक न न आभ्याम् इति अस्ति, अतः तृतीय सर्वं तृतीय खलु.
अहम् आभ्यां
बालकाभ्यां
तृतीयविभक्ति अस्ति
सः
सः आपणं गच्छामि.
हा इदानीं तत्र तृतीयमाध्यमं किमपि स्वीकरोतु. तत्र
तृतीय सः
इदानीम् एभिः इति अस्ति. हा एभिः
बहुवचने एभिः बालकैः सह वसामि.
समीचीनम् अस्तु, समीचीनं भगिनि. हा महोदय समीचीनं महोदय अस्तु. तावदेव तत्र तृतीय यत्र यत्र वयं तेन ताभ्यां तैः इति स्थाने तत्र अनेन आभ्यां एभिः इति. समीचीनं महोदय, धन्यवादः. अस्तु इदानीं वदतु भगिनि.
बालकः इमं गुरुं नमति इति.
बहु समीचीनं. हा बालकः इमं गुरुं नमति. समीचीनं भगिनि. हा इदानीं पुल्लिङ्गरूपं जातं. हा इदानीं द्वितीय द्विवचने
द्विवचने बालकौ इमौ
बालकः अथवा बालकौ तत्र बालकः इति
बालकौ इमौ गुरुः गुरुं गुरु नमतः.
अस्तु
बालकान् इमान् गुरून् नमन्ति.
तत्र पुनः वाक्यं वदतु भगिनि.
बालकान् गुरून् इमान् बालकः बालकान् इमान् गुरून् नमन्ति.
अस्तु क्रियापदं किम् अस्ति तत्र?
नमन्ति अस्ति महोदय.
नमन्ति अस्ति. कर्मपदं किम् अस्ति?
विशेषणविशेष्यम् अस्ति. इमान् गुरून् बालकान् कर्तृपदमस्ति.
किन्तु बालकान् इति पदस्य विभक्ति का? तत्र के नमन्ति?
बालकः बालकौ बालकाः.
अतः वाक्यं किं?
बालकाः इमान् गुरून् नमन्ति.
हा इदानीं समीचीनमस्ति. हा समीचीनं भगिनि. अस्तु अस्तु तत्र नूतनरूपम् अस्ति, किन्तु भ्रमः मास्तु
खलु.
अतः तत्र समीचीनमेव. बालकाः इमान् गुरून् नमन्ति. समीचीनं भगिनि. अस्तु अग्रे तत्र वेदा भगिनि भवती पञ्चमी इति आसीत् वा? पञ्चमी भवत्याः पञ्चमी इति आसीत् खलु?
अहं
दत्तवान्. अस्तु अस्तु भगिनि. हा अस्तु अग्रे ददामि भगिनि. अस्तु तत्र प्रिया भगिनि अग्रे करोतु भगिनि.
चतुर्थी अस्मै अहम् अस्मै देवालयाय धनं ददामि. आभ्यां बालकः आभ्यां शुकाभ्याम् आपणं गच्छति. एभ्यः एभ्यः उद्यानपालकः एभ्यः वृक्षेभ्यः जलं ददाति.
समीचीनं समीचीनं भगिनि. अस्तु उत्तमम्. अस्तु अग्रे इदानीं तत्र षष्टी कस्य आसीत् तत्र ललिता भगिनी भवत्याः षष्टी आसीत् वा? अस्तु अस्तु भगिनि वदतु भगिनि. श्रीप्रिया भगिनी नमस्कारः. नमस्कारः भगिनि. पुटसङ्ख्या अस्ति 51. अस्तु भगिनि ललिता भगिनि वदतु भगिनि. ललिता भगिनि न श्रूयते भगिनि. ललिता भगिनि न श्रूयते.
अस्य महोदयस्य वर्गः बहु सम्यक् अस्ति. श्रूयते वा?
श्रूयते श्रूयते समीचीनं भगिनि. इदानीं द्विवचने द्विवचने
षष्टि
द्विवचने षष्टि एकवचनं कृतम्. इदानीं द्विवचने
षष्टि एकवचने अस्य महोदयस्य वर्गः बहु सम्यक् अस्ति. द्विवचने अनयोः वार्तानां श्रुतुम्
अनयोः इति अस्ति. अनयोः इति अस्ति. तदनन्तरं किं पदम् आसीत् भगिनि?
वार्ताः श्रोतुम्.
किन्तु वार्ता इति लिङ्गं किम्?
वार्ता बहुवचने अस्ति. वार्तान् श्रुतुं भीतिः अनुभवन्ति.
किन्तु भगिनि तत्र अनयोः इति तत्र
षष्टि
अस्तु. अनयोः षष्टि अस्ति. वार्ता इति पदस्य लिङ्गं किन्तु वार्ता इति पदस्य लिङ्गं किम्?
वार्ता ओ अच्छा वार्ता स्त्रीलिङ्ग् अस्ति. वार्तानाम्
अस्तु. अनयोः इति पदस्य लिङ्गं किम्? अनयोः इति अनयोः इति पदस्य लिङ्गं किम्?
ओके
अपि वचनं वचनं किं वचनं वचनमपि तत्र
द्विवचनमस्ति. अनयोः मम वार्ता स्त्रीलिङ्ग् अस्ति. परन्तु समानमेव न स्त्रीलिङ्गम् अनयोः अस्ति न.
किन्तु इदानीम् अत्र पुल्लिङ्गरूपम् अपेक्षितम्.
अनयोः
इदानीं पुल्लिङ्गरूपं करोतु. अग्रे तत्र स्त्रीलिङ्गरूपं यदा कुर्मः तस्मिन् समये स्त्रीलिङ्गरूपमपि वाक्यं वदतु. किन्तु इदानीं पुल्लिङ्गरूपं वाक्यं वदतु.
अनयोः
वार्ता इति इदानीं वार्ता इति त्यजतु. विषयोः विषययोः इति स्वीकरोतु.
विषययोः
तत्र राम अस्ति चेत् तत्र
रामयोः
अतः तत्र विषयः इति
विषययोः
अनयोः विषययोः
अनयोः विषय श्रोतुं जनाः भीति अनुभवन्ति.
किन्तु तत्र श्रोतुम् इति अस्ति चेत् तत्र तस्मात् प्राक् किं भवेत्? श्रोतुम् इति अस्ति चेत् प्रश्नः भवति खलु तत्र किं श्रोतुम् इति. अत्र किम् अस्ति तत्र किन्तु श्रोतुम् अस्ति चेत् तत्र कर्मपदं भवेत् खलु. इदानीं विभक्तिषष्टि अस्ति खलु. अस्तु अस्तु किञ्चित् चिन्तयित्वा तत्र प्रथमवाक्यं बहु समीचीनम् आसीत् भगिनि. तादृशमेव करोतु. तत्र शोभा भगिनी सप्तमी वदति अस्तु बहुवचनं वदतु भगिनि.
पुत्रेषु श्रीहरिः कुचलः.
तत्र येषाम् अस्ति चेत्
येषाम्
इति भगिनि तत्र येषाम् इति स्थाने
बहुवचने
अस्तु येषाम् इति अस्ति. अस्तु अस्तु वाक्यं वदतु भगिनि. अस्तु तत्र
पुत्रेषु श्रीहरिः कुशलः.
अस्तु भगिनि इदानीं तत्र अयम् इत्युक्ते अर्थः कः भगिनि? अयम् इत्युक्ते सः अथवा एषः खलु, खलु अयं स्थाने, अयं स्थाने एषः अथवा सः इति वक्तुं शक्नुमः खलु भगिनि? इदानीम् एषाम् एषाम् एष एकनिमिषः एकनिमिषः एषां स्थाने तत्र सः अस्ति चेत् तत्र किं भवति? सः इति प्रथमविभक्तिरूपम् अस्ति एकवचने, सः इति पदस्त न न षष्टि षष्टि बहुवचनं किम् अस्ति? तेषामस्ति खलु, तेषाम् अस्ति खलु, हा तेषां पुत्राणां, हा तेषां पुत्राणां,
केषां पुत्राणां श्रीहरिः कुशलः, श्रीहरिः कुशलः,
अस्तु तेषां पुत्राणां, तत्र तेषु पुत्रेषु
इति श्रूयते वा?
न न श्रूयते, किन्तु तत्र अस्तु साधारणतया सप्तमी तत्र प्रयोगः भवति इति मन्ये, किन्तु तत्र प्रायशः तत्र वक्तुं शक्नुमः इति मन्ये. अस्तु भगिनि समीचीनं. हा तत्र द्विवचने अग्रे वाक्यं वदतु. हा अस्तु इदानीं तत्र शोभगिनी सप्तमी करोति वा भगिनि?
नमस्ते,
चिन्ता मास्तु भगिनि. हा वंशीसुधा भगिनि नमस्कारः. अशोभा भगिनि
तत्र एकवचने अस्मिन् स्थले बहूनि सुन्दराणि सस्यवृक्षाणि दृश्यन्ते.
वृक्षाणि इति तत्र वृक्षः इति पुल्लिङ्गे अस्ति भगिनि.
ओ वृक्षाः सस्य
बहवः
बहवः
बहवः सुन्दराः
बहवः सुन्दराः क्षमता महोदय बहवः सुन्दराः वृक्षाः दृश्यन्ते.
समीचीनम्. अग्रे द्विवचने
अनयोः उभयोः वृक्षयोः फलानि इति वक्तुं शक्नोमि किल?
अनयोः
उभयोः वृक्षयोः वृक्षयोः वृक्ष तस्मिन् वृक्षे किं भवति इति बहुवचने
वृक्षयोः
बहु बहूनि पुष्पाणि दृश्यन्ते.
समीचीनं.
बहूनि पुष्पाणि दृश्यन्ते.
समीचीनम्.
अस्तु एषु सर्वेषु पुष्पेषु
इदानीं पुष्प पुष्पम् इति नपुंसकलिङ्गपदं
नपुंसकलिङ्गं विभक्ति
रूपं तु समानमेव, किन्तु इदानीं पुल्लिङ्गम् इति अपेक्षितम् अतः.
ओ अस्तु अस्तु अस्तु. एषु सर्वेषु वृक्षेषु अथवा
वृक्षेषु एव स्वीकरोतु, सरलवाक्यं तावदेव. एषु सर्वेषु
सर्वेषु वृक्षेषु तत्र पारिजातवृक्षं मम प्रियम्
इति वृक्षेषु पारिजातवृक्षः मम प्रियः
वृक्षः मम प्रियः
मम प्रियः. समीचीनं भगिनि, धन्यवादः.
पुंलिङ्गे अस्ति वा वर्गं नपुंसकलिङ्गे अस्ति वा?
वर्गः पुल्लिङ्गम् इति मन्ये भगिनि.
पुल्लिङ्ग महोदय कुत्र स्म महोदय?
पुटसङ्ख्या अस्ति 51 भगिनि.
अभ्यासः
इदम् इदं शब्दस्य पुल्लिङ्गरूपाणि अयम् इमौ इमे इति
सत्यं, परन्तु कुत्रतः भवती पठितवती?
न न केवलं केवलं तत्र सर्वे वाक्यं रचयतु इति रचयन्तु इति उक्तवान् तावदेव. भवती अपि करोतु इदानीं तत्र अपि वेदा भगिनी न कृतवती अतः तत्र अपि अस्तु तत्र वंशीसुधा भगिनी तत्र प्रथमा विभक्तौ तत्र अयं नाम
अयम् इमे
तत्र वाक्यं
सर्वाणि रूपाणि
वदतु भगिनि सरलवाक्यम्.
अयम् अयं वृक्षः इमौ वृक्षौ इमे वृक्षाणि
वृक्षाः वृक्षाः
वृक्षाः क्षम्यतां वृक्षाः
वृक्षाः वृक्षाः अयं वृक्षः अस्ति इमौ वृक्षे वृक्षौ स्तः इमे वृक्षाः सन्ति. अस्तु तावदेव. अस्तु समीचीनम्. अस्तु अग्रे तत्र इदानीं तत्र एतत् एषः इव तावदेव तत्र अर्थः समान एषः अथवा सः इति तत्र
तत्र भेदः अस्ति न महोदय, एषः अपि च अयं मध्ये एकं तु बहुपार्श्वे अस्ति.
सत्यं सत्यं, किन्तु अस्मिन् पाठे तत्र अयं नाम एषः इति स्वीकृतम् अस्ति अत्र.
ओ अस्तु,
हा सत्यमेव, तत्र भेदः अस्ति, किन्तु इदानीं तत्र तादृशं सूक्ष्मभेदः मास्तु इति तत्र अयं नाम एषः इति स्वीकुर्मः.
सत्यम् अस्तु महोदय.
हा नो चेत् तत्र क्लेशः भवति. अस्तु, प्रथमतया तत्र अयम् इति पदस्य अभ्यासः भवतु, तदनन्तरं सूक्ष्मभेदस्य अवगमनम्. अस्तु, इदानीं तत्र पाठस्य अपि तत्र किञ्चित् एकवारं पुनस्मरणं कुर्मः. तत्र यतोहि यद्यपि वयं तत्र कथां पूर्णतया पठितवन्तः, किन्तु पुनः एकवारं तत्र किञ्चित् कुर्मः. अतः तत्र तत्र श्रीप्रिया भगिनी भवती इदानीं मास्तु, अग्रे भवती वदतु. अस्तु, तत्र वेदा भगिनी तत्र कथायाः तत्र पाठस्य तत्र युधिष्ठिरः इति अस्ति खलु, तत्र तस्मिन् विषये भूमिकायाः विषये किञ्चित् वदति वा?
एकनिमिषं महोदय, स्मरामि. महाभारते तत्र
किन्तु तत्र सरलवाक्यं तत्र किम् अपेक्षितं, सरलवाक्यं यत् तत्र अस्ति तद् मास्तु, तद् दृष्ट्वा स्वशब्दैः वक्तव्यं. सरलवाक्यं भवति अपि चेत् चिन्ता मास्तु, यत् सर्वं तत्र अस्ति तद् वक्तव्यम् इति नास्ति. तस्मात् किञ्चित् स्वीकृत्य केवलं तत्र किम् आसीत् इति पुनस्मरणार्थं तत्र बालकः, उत्तमः बालकः तत्र सुन्दरेषु वनेषु गच्छति इति, तत्र केवलं बालकः गच्छति इति तावदेव. लघु दीर्घवाक्यम् अस्तु, लघुवाक्यं.
तत्र महाभारतयुद्धस्य महाभारतयुद्धं समाप्तं, तत् भीष्मः शरशय्यायाम् आसीत्. तत्र युधिष्ठिरः चिन्ताकुलः आसीत्, युद्धे मृतानि मृतानां शरीराणि दृष्ट्वा युधिष्ठिरः किं चिन्ताकुलः आसीत्. तदेव युधिष्ठिरः भीष्मस्य पक्षे गतवान्. भीष्मस्य नमस्कृत्य तं
भीष्मं नमस्कृत्य तं
प्रश्नं पृच्छवान्.
सरलवाक्यं भगिनि, सरलवाक्यं, किन्तु तत्र सरलवाक्यं, बहु किमपि वक्तव्यम् इति नास्ति. तत्र सः दुःखितः आसीत्,
दुःखितः आसीत्, अत एव
भीष्मस्य समीपं गतवान्, तदनन्तरं ततः इति मास्तु, भीष्मस्य समीपं गतवान्. सरलवाक्यं यदि स्वीकुर्मः सुलभं भवति, दीर्घं वाक्यं यदि भवती करोति तत्र क्लेशः भवति मनसि. मास्तु, सरलवाक्यमेव वदतु.
भीष्मस्य समीपं गतवान्, तम् एकः प्रश्नम् अपि
तत्र मूलविषयः किं, मूलविषयः तत्र किम् उक्तवान्?
तत्
एतस्य सर्वस्य
युधिष्ठिरः वदति, एतत् दुर्दशायाः,
एतत् इति नास्ति, दुर्दशायाः अस्ति चेत् तत्र स्त्रीलिङ्गम् अस्ति, अतः अस्याः अथवा एतस्याः इति,
एतस्याः दुर्दशायाः कारणम् अहमपि अस्ति इति,
अहमपि अहमेव अस्मि,
अहमेव अस्मि इति मन्ये. अहं न जानामि कीदृशं
कीदृशीं
गतिं प्राप्स्यामि इति
सः वदति. समीचीनं भगिनि, तावदेव. किन्तु सरलवाक्यं यदि भवती करोति सुलभं भवति, नो चेत् भवती एव तत्र कष्टकरम् इति. अतः अत एव तदेव कर्तव्यं. केवलं तत्र यदि पठामः तस्मात् एव सर्वं न, किन्तु वयमपि यदि वदामः तदा एव मनसि तत्र विभक्ति का, वचनं किं, लिङ्गं किं, विशेषणविशेषभावः अस्ति न वा. किन्तु प्रथमतया लघुवाक्यं यदि कुर्मः एतत् सर्वं स्थापितं भवति, तदनन्तरं दीर्घवाक्यं कुर्मश्चेत् अपि दीर्घवाक्ये किं लघुवाक्यानि एव तत्र दीर्घवाक्ये तत्र लघुवाक्यानि एव घटितानि सन्ति खलु. अतः तत्र लघुवाक्यानि यदि कुर्मः तत्र आङ्ग्लभाषायां वदन्ति खलु इवन् अ लाङ्ग् जर्नी स्टार्ट्स् वित् अ स्माल् स्टेप् इति. अतः तत्र केवलं लघुवाक्यं सम्यक्तया करणीयम्. एतत् अस्माकं प्रथमं कर्तव्यं, लघुवाक्यं लिङ्गं वचनं सर्वं समीचीनं भवेत्. अस्तु, धन्यवादः भगिनि. अस्तु, किन्तु भूमिकायाः विषये इदानीम् उक्तं, समीचीनं भगिनि. अस्तु, अग्रे
उत्तमः सन्देशः महोदय भवान् अद्य दत्तवान्.
न जानामि भगिनि, किन्तु
तदेव करणीयं, यतोहि लिङ्ग भाषायां तु तत्र बहवः दोषाः भवन्ति. यतोहि वयं वदामि, नो चेत् रचयामि, वाक्यानि रचयामि पृथक् पृथक् कृत्वा,
तदनन्तरं संयोजनं कृत्वा वयं दीर्घवाक्यं रचितुं शक्नुमः. अस्तु, अग्रे तत्र किम् एतावत् ललिता भगिनी तत्र किञ्चित् वदति वा अग्रे?
वदामि महोदय. तदनन्तरं भीष्मः युधिष्ठिरं समाधानं दातुं
युधिष्ठिराय दातुम् इति खलु.
ओके, युधिष्ठिराय समाधानं दातुं वदति इच्छति, वदति इति कि सर्वस्य
वदति की इति नास्ति अत्र, वदति की इति की इति अन्या भाषा अस्ति.
यत् सर्वं कर्मणा एव भवति, युधिष्ठिरस्य कोऽपि दोषः नास्ति इति.
हा, समीचीनं, कर्मणा एव सर्वं भवति, समीचीनं भगिनी, कर्मणा एव सर्वं भवति, अत्र युधिष्ठिरस्य कोऽपि दोषः
नास्ति.
कर्मणः समीचीनं, कर्मणः
फलमेव अनुभवन्ति इति. परन्तु युधिष्ठिरः सन्तुष्टः न अभवत्, कारणं
अतः तत्र किं भीष्मः किं करोति,
अतः भीष्मः एकां कथां श्रावितवान्.
बहु समीचीनं भगिनि, धन्यवादः. समीचीनं,
धन्यवादः.
अस्तु, समीचीनं. इदानीं तत्र अग्रे धन्यवादः भगिनि. अस्तु, अग्रे प्रिया भगिनि, अग्रे कथायां किम् आसीत् आरम्भे? प्रिया भगिनी, अस्तु अस्तु भगिनि, एकनिमिष, तत्र अत्र तु किमपि नास्ति अत्र अन्म्यूट् कर्तुम्, अत्र किमपि नास्ति भगिनि, तत्र अस्तु अस्तु, अग्रे वदतु भगिनि. तत्र अत्र तु किमपि कण्ट्रोल् नास्ति, तत्र नियन्त्रणं कर्तुं किमपि नास्ति, तत्र अन्म्यूट् इति म्यूट् इति अस्ति, किन्तु अन्म्यूट् इति किमपि नियन्त्रणं नास्ति. अस्तु, अतः किञ्चित् अस्तु भगिनि, अस्तु अस्तु. अतः तत्र अग्रे शोभा भगिनि अग्रे वदति वा?
आं महोदय. Madhya, Tatra, if you hold it down, it will pop up a message that doesn't, not about what?
Tatra, unmute iti nasti bhagini. Tatra, anyat sarvam asti, kintu tatra switch, presenter, request, control, tat sarvam asti. Kintu tatra, unmute iti nasti bhagini. Kim karaniyam?
अपि च महोदय वाक्यानां विषये एकं वक्तुम् इच्छामि. तत्र भवतः पुरतः रचयामः चेत् भवान् सम्यक् कर्तुं शक्नोति इति नूतनप्रयोगाः भवन्ति तत्र.
एतत् अपि प्रायश सत्यं भगिनि, सत्यमेव सत्यमेव. नो चेत् तत्र सरलवाक्यं वयमेव कुर्मः, किन्तु अत्र अस्तु सत्यमेव.
किन्तु यद् भवान् उक्तवान् तदपि समीचीनमेव महोदय. किन्तु तदर्थं
सत्यं भगिनि, इदानीम् अवगच्छामि किमर्थं. सत्यं सत्यं भगिनि.
अस्तु, तत्र तदनन्तरं कथां श्रावितवान् किल भीष्म
पितामहः. कथायां किम् आसीत्?
अस्तु, तत्र तस्यां कथायां एका तपस्विनी महिला तस्याः पुत्रं किं
एकः सर्पः
महिलायाः पुत्रम् एकः सर्पः अदशत् पुत्रः मारितवान् एकेन सर्पेण.
न तत्र सर्पः पुत्रं मारितवान्.
सर्पेण पुत्रः मारितवान् किल?
न सर्पेण अस्ति चेत् तत्र मारितः इति भवति. सर्पेण पुत्रः मारितः.
ओ, तृतीयविभक्ति. अस्तु अस्तु,
सर्पेण
पुत्रः मारितः. अस्तु अस्तु, मारितः. तदा एकः व्याधः एतत् सर्वं दृष्टवान् आसीत्. अतः सः तं सर्पं मारयितुम् इष्टवान्, किन्तु एषा तपस्विनी महिला तस्य विरोधं करोति. किमर्थं चेत् तस्मिन् विषये सर्पस्य किमपि दोषः नास्ति. अतः
न अत्र सः न चिन्तयति खलु दोषः अस्ति न वा इति न खलु. किन्तु तत्र यदि तत्र सर्पस्य मरणं भवति चेदपि तत्र मृतः पुत्रः पुनः न आगच्छति
इति.
एतावत् तत्र दोषस्य विषयः नासीत् इति खलु.
अस्तु अस्तु, अहं किञ्चित् अग्रे गतवती.
अग्रे गतवती. एतावत् तत्र सा निराकृतवती. किमर्थम् इत्युक्ते तत्र अस्य सर्पस्य मारणेन तत्र किं तत्र पुत्रः पुनः आगच्छति,
पुनः
आगच्छति तत्र जीवनः, तत्र जीवनं पुनः न प्राप्नोति. अतः कः लाभः इति सा वदति. अस्तु, समीचीनं भगिनि. अतः तत्र तावदेव, तत्र सा निराकृतवती, तत्र सर्पस्य मारणं मास्तु इति सा उक्तवती. समीचीनं भगिनि. अस्तु, इदानीम् अग्रे नरेश् महोदय. अग्रे धन्यवादः भगिनि. नरेश् महोदय.
व्याधः तु सर्पं मारितुं इच्छति, परन्तु तपस्विनी अवदत् सर्पे मारिते मम पुत्रः न जीवितः भवति.
अतः तत्र लाभः नास्ति इति. इदानीम् अग्रे गच्छामः महोदय.
किन्तु व्याधः न अङ्गीकृतवान्. सः पुनः अवदत् एतत्तु सर्पस्य दोषः अस्ति.
एतस्य सर्पस्य अथवा अस्य सर्पस्य दोषः अस्ति इति एव सः.
अतः
तत्र सर्पस्य दोषः इति न, किन्तु तत्र एतं सर्पं मारयामि इति सः पुनः पुनः उक्तवान्.
मारयामि तथा
तस्मिन् समये
तपस्विनी पुनः अवदत् तस्य सर्पस्य मरणं किमपि लाभः नास्ति.
सर्पस्य तत्र सर्पस्य मरणेन कोऽपि लाभः नास्ति. हा, किमपि न लाभः इति पुल्लिङ्गे अस्ति, अतः कोऽपि लाभः नास्ति. कोऽपि लाभः नास्ति. हा, इदानीं तत्र तदनन्तरं किम् अभवत्? तत्र सर्पः
सर्पः अवदत्,
हा, मनुष्यभाष्य अवदत्, किम् अभवत्? किम् अवदत्?
तत्तु मम दोषः नास्ति, अहं तु मृत्योः प्रेरणया बालकम् अदर्शत्.
हा, बहु समीचीनं महोदय. अस्तु, हा, तत्र वयं जानीमः तत्र कारणम् इति यदि वक्तुम् इच्छामः, कारणं वक्तुम् इच्छामः चेत् तत्र श्रीप्रिया भगिनी तत्र विभक्ति का का विभक्ति भवितुम् अर्हति कारणम् इति स्थाने? हा, समीचीनं भगिनि. अतः तत्र तस्मात् कारणात् अथवा अत्र तेन अथवा तत्र तेन तत्र प्रेरणया इति, अतः तया प्रेरणया इति. समीचीनं भगिनि, धन्यवादः. हा, अस्तु. अतः नरेश् महोदय अत्र तत्र, हा, अतः तत्र प्रेरणया एव अहं
बालकम् अदर्शत्
इति. अस्तु, समीचीनं महोदय. हा, अतः तत्र सर्पः वदति तस्य कोऽपि दोषः नास्ति इति सः वदति. अस्तु, समीचीनं. हा, अस्तु, इदानीं तत्र अग्रे सरामः. तत्र उषा भगिनी अग्रे वदति वा भगिनि?
आं महोदय.
हा,
बालस्य
इदानीं तत्र किम् एतावत् किम् अभवत्? तत्र सर्पः वदति मम दोषः नास्ति, मृत्योः एव दोषः. हा, मृत्योः दोषः अथवा तत्र दोषः मृत्यौ, मृत्युः इति तस्य सप्तमी, मृत्यौ एव दोषः अस्ति अथवा मृत्योः दोषः अस्ति. हा,
अस्ति इति. तदा मृत्यु तत्र आगत्य वदति, एः सर्पः, अहं कारणं न, अपि च त्वमपि न कारणं, कालस्य एव कारणम् अस्ति. बालस्य मरणं तु कालस्य एव कारणं, न तु मम दोषः, अपि च न तु त्वया इति
तव दोषः अपि नास्ति. सर्पं वदति तव दोषः नास्ति, मम दोषः अपि नास्ति, किन्तु केवलं कालस्य एव दोषः. तत्र कालः तत्र यतः तेन प्रेरितहं त्वां प्रेरितवान् इत्युक्ते किं? तत्र वाक्यमस्ति खलु, यतः तेन प्रेरितः
अहं त्वां प्रेरितवान्.
हा, नाम
तेन तृतीयविभक्ति अस्ति तत्र.
तेन इत्युक्ते केन?
यतः तेन इत्युक्ते कारण
कालेन, तेन कालेन, तेन कालेन अहं प्रेरितः. अहं नाम तत्र मृत्युः, मृत्युः वदति अहं प्रेरितः, अहं त्वां, त्वां नाम सर्पं, सर्पं प्रेरितवान्. अतः तत्र कालस्य एव
कारणम् अस्ति इति.
हा, कालः एव तत्र, यदि दोषः अस्ति चेत् तत्र कालस्य एव दोषः इति. समीचीनं भगिनि. हा, अस्तु, अग्रे इदानीं तत्र हा, प्रिया भगिनी इदानीं वक्तुं शक्नोति वा? हा, न श्रूयते भगिनि. शुभदा भगिनी नमस्कारः, भवती पूर्वम् आगतवती वा?
नमस्ते महोदय, किञ्चित् आगतवती.
अस्तु 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 भगिनि. हा, नमस्कारः. प्रिया भगिनी न श्रूयते भगिनि? अस्तु,
पुटसङ्ख्या का महोदय?
पुटसङ्ख्या 50 भगिनि. अस्तु, इदानीं तत्र यत् कृतवन्तः किन्तु स्वशब्दैः वदन्तः स्मः तावदेव. अस्तु, अग्रे तत्र तर्हि तदनन्तरं कः एतावत् तत्र अस्तु तत्र हा सुजाता भगिनी किञ्चित् वक्तुम् इच्छति वा भगिनी तत्र
प्रयत्नं करोमि महोदय
अस्तु भगिनी हा अस्तु यद् यद् कर्तुं शक्नोति तत्र एतत् तत्र वाक्यं स्वीकरोतु तत्र हा यथा वायुः आकाशे स्थितान् मेघान् आकर्षति विकर्षति च तद्वदेव कालः अपि अस्मान् सर्वान् आकर्षति विकर्षति च तत्र मृत्युः वदति किं वदति यथा
वदति यथा कालः मेघः
वायुः मेघान्
आकर्षति विकर्षति तदैव
कालः
अपि
तत्र सर्वान् जीवान् इति स्वीकरोतु सर्वान् जीवान् आकर्षति समीचीनम् अस्तु तत्र अस्तु तत् अग्रिमवाक्यम् अस्ति किन्तु समीचीनमेव अस्तु तत्र कालेन इदं जगत् सृज्यते इदं नाम जगत् जगत् नपुंसकलिङ्गपदम् अतः इदं जगत् सृज्यते संह्रियते तत्र सृष्टिः जगतः सृष्टिः जगतः संहरणम् अपि कालेन एव भवति इति समीचीनम् अतः तत्र वयं सर्वे तत्र तत्र दोषः केवलं कालस्य एव दोषः अन्य कोऽपि अस्ति वा तत्र तस्य दोषः इति वक्तुं न शक्नुमः केवलं कालस्य एव दोषः इति वदति अस्तु समीचीनं हा अस्तु भगिनि समीचीनं हा तत् हा अस्मिन् विषये तत्र एकः अंशः तत्र गतवर्गे अहं न ज्ञातवान् किन्तु इदानीं जानामि अतः तत्र अस्मिन् विषये किञ्चित् वक्तुम् इच्छामि तत्र पूर्वस्मिन् पुटे तत्र पाठस्य आरम्भे तत्र तत्र भीष्मः शरशय्यायाम् आसीत् इति अस्ति खलु तत्र सर्वे अवगच्छन्ति खलु तत्र भीष्मः शरशय्यायाम् आसीत् इति भीष्मः शरशय्यायाम् आसीत् इति तत्र वेदभगिनी अपि उक्तवती खलु भीष्मः शरशय्यायाम् अस्ति इति आसीत् इति तत्र वयं सर्वं किं चिन्तयामः तस्मिन् विषये यदि एतत् शृण्मः वयं चिन्तयामः तत्र भीष्मः अस्ति तत्र तस्य अधोभागे तत्र शराः अनेके शराः सन्ति खलु इति तत्र अर्जुनः तत्र अनेकान् शरान् तत्र किं प्रेषितवान् ते शरशय्या कृतवान् इति किन्तु तत्र अहम् अस्मिन् सप्ताहे एव ज्ञातवान् तत्र एतत् तत् यत् चित्रं वयं चिन्तयामः तत् सत्यं नास्ति इति तत् महाभारते नास्ति इति अहम् अस्मिन् सप्ताहे एव ज्ञातवान् तत्र एतत्तु सत्यम् अस्ति तत्र महाभारते किम् उक्तम् इत्युक्ते तत्र भीष्मः तत्र पतितः तदनन्तरं सः अर्जुनः तत्र शरत्रयम् उपयुज्य तत्र भीष्मः शेतुं तत्र पिल्लो इति तादृशं कृतवान् किन्तु तदनन्तरं किम् उक्तम् अस्ति चेत् तत्र सः तत्र यत् चित्रं वयं चिन्तयामः तद् नास्ति किन्तु तत्र अनेके शराः तत्र भूमौ पतिताः सन्ति तत्र राशिः शराणां राशिः आसीत् तस्याः राशेः उपरि भीष्मं स्थापितवन्तः किन्तु तत्र शराः यदि वयं चिन्तयामः तत्र वर्टिकल् इति अस्ति खलु तादृशं नास्ति शराः सर्वे हारिसोण्टल् एव आसन्
एतत्
कुत्र ज्ञातवान् इत्युक्ते तत्र भण्डार्कर् इति इन्स्टिट्यूट् अस्ति, कोऽपि जानाति वा? तत्र भण्डार्कर् भण्डार्कर् ओरियण्टल् रिसर्च् इन्स्टिट्यूट् इति अस्ति, तत्र तेषां वर्गः अस्ति तत्र महाभारतयुद्धे, तत्र ते तत्र तस्मिन् इन्स्टिट्यूट् मध्ये संस्थापने तत्र अनेका तत्र बहु किमपि कार्यं कृतवन्तः, तत्र महाभारत इति ग्रन्थाः अनेकाः अनेके सन्ति, तेषां तत्र सङ्ग्रहणं कृत्वा तत्र भेदः कः तत्र तयोः ग्रन्थयोः अथवा ग्रन्थेषु भेदाः कुत्र कुत्र वर्तन्ते इति सर्वं दृष्ट्वा ते नूतनं तत्र ग्रन्थं कृतवन्तः, तत्र क्रिटिकल् एडिशन् इति वदन्ति. तत्र क्रिटिकल् एडिशन् मध्ये यदस्ति तद् प्रायशः सर्वेषु इति न आधिक्येषु तत्र ग्रन्थेषु तदेव अस्ति इति. अतः तत्र यद् यदि तत्र क्रिटिकल् एडिशन् पश्यामः तत्र यदस्ति तद् प्रायशः तदेव वस्तुतः ग्रन्थे वस्तु तत्र सत्यग्रन्थे तदेव आसीत् इति. अत्र किम् अस्ति तत्र एतद् यद् चित्रं वयं चिन्तयामः तत् सत्यं नास्ति इति. इदानीं तेषां ते एकः वर्गः चालयन्ति तत्र महाभारत महाभारतस्य क्रिटिकल् एडिशन् कथम् अभवत् इति अपि एकम् एकं पर्वं स्वीकृत्य तत्र एकघण्टा यावत् तत्र कोऽपि तत्र तत्र लेक्चर् तत्र उपन्यासः भवति, तत्र बहु समीचीनमस्ति. तत्र इदानीं तत्र 20 अधिक वर्ग तत्र उपन्यासाः सन्ति इदानीम् एतावत्. तत्र कुत्र स्मः कर्णस्य पर्वः इति इदानीम् अद्यतन आसीत्, किन्तु ह्यः अथवा परह्यः तत्र एतदेव आसीत् भीष्मपर्वे एतद् उक्तवन्तः, अतः अहमपि वदामि. हा तावदेव. किं भगिनि?
बहु किमपि संशोधनं तत्र.
हा सत्यं भगिनि, सत्यं. हा तत्र किं
वैदिकं
हा सत्यं भगिनि अपि अपि तत् एतद् इदानीं नास्ति. तत्र आरम्भं तु तत्र किं शतवर्षपूर्वमेव तत्र तत्र किं महाभारत प्रोजेक्ट् इति किमपि अस्ति, तत्र शतवर्ष प्राक् एव तत्र आरम्भं कृतवन्तः इति मन्ये, तत्र 1920 इति किमपि. तदनन्तरं 30+ वर्षानन्तरं तत्र क्रिटिकल् एडिशन् अभवत् इति ते उक्तवन्तः. समीचीनम् अस्ति. किन्तु अतः तत्र किं वयं तत्र चलनचित्रे वा अथवा तत्र टि वि सीरीस् मध्ये पश्यामः तत् सत्यं न वा इति तत्र किञ्चित्
तत्र लिटरलि टेकन् सन्ति महोदय.
तत्र तु उपधानं कृतवन्तः न महोदय अर्जुनः तु तत्र, परन्तु शय्या न कृतवान् इत्येव भवान्
तावदेव तत्र 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 भीष्मस्य शिरसे सः तत्र लघुशय्या कृतवान्, किन्तु तत्र सर्वं तत्र सर्वस्य शरीरस्य शय्या न कृतवान् इति. अतः तत्र चित्रस्य किञ्चित् परिवर्तनं करणीयम् अस्माभिः. अस्तु तर्हि इदानीं
मनोचित्रस्य
मनोचित्रस्य परिवर्तनं करणीयम्.
तत्र वक्ता कः अस्ति महोदय?
वक्ता तु भिन्नाः सन्ति, वक्ताः तु भिन्नभिन्न एक प्रत्येकदिनं नूतनः एव. तत्र कोऽपि डाक्टर् भापत् इति आसीत्, तदनन्तरं डाक्टर् जोशी इति, तत्र अनेकाः जनाः सन्ति, अनेके जनाः सन्ति तत्र महाभारतस्य बहु किमपि उत्तमं संशोधनम् अपि ते उत्तमरीत्या वदन्ति भगिनि. इदानीं वर्गः प्रचलन् अस्ति भगिनि अपि, तत्र यदि तत्र अभिरुचिः अस्ति चेत् अहं तस्मिन् विषये प्रेषयामि, तत्र अग्रे अपि ते चालयितुम् इच्छन्ति. अस्तु प्रेषयामि.
ध्वनिमुद्रणमपि अस्ति वा महोदय?
ध्वनिमुद्रणम् अस्ति भगिनि, किन्तु ते वदन्ति तत्र केवलं यूट्यूब् मध्ये अस्ति, किन्तु तत्र प्रसारणं मा करोतु इति.
कस्मिन् भाषायाम् अस्ति महोदय?
आङ्ग्लभाषायाम् अस्ति भगिनि. सर्वं तत्र मध्ये मध्ये तत्र यद् महाभारते श्लोकान् वदन्ति, तदनन्तरं तत्र अर्थः कः इति अपि आङ्ग्लभाषायां वदन्ति. किन्तु यदि महाभारतस्य विषये तत्र यद् जानीमः, किन्तु तत्र तस्मिन् विषये एव तत्र अंशाः, नूतन अंशाः भवेयुः इति. अस्तु, समीचीनम्. अस्तु
महोदय, वयं सब्स्क्रैब् कुर्मः, प्रसारणम् इति न भवति.
न न भगिनि, तत्र प्रसारणं नाम तत्र लिङ्क् शेर् मा करोतु इति उक्तवन्तः. अपि तत्र सप्तदिनं यावत् तत्र लिङ्क्, तत्र यूट्यूब् लिङ्क् भवति इति उक्तवन्तः. हा, अतः तत्र किन्तु उत्तममेव, तत्र केचन उपन्यासः तत्र प्री रेकार्डेड् भवन्ति, केचन तत्र ते तत्रैव ज़ूम् मध्ये आगत्य तत्र वदन्ति, तदनन्तरं क्यू एण्ड् ए सेशन् अपि भवति.
तत्र महोदय, तत्र कथायाः विषयः एव भवति वा, नो चेत् मूलविषयः किम् अस्ति? यतोहि
मूलविषयः एतदेव, तत्र प्रत्येकपर्वे किं किम् अस्ति, अपि क्रिटिकल् एडिशन् मध्ये किम् अस्ति इति, तत्र किं किम् अभवत्
अर्थः अपि भवति न महोदय? तत्र किम् अस्ति, पाण्डवाः किं सूचयति,
सत्यं सत्यं, हा हा सत्यं सत्यं, तत्सर्वम् अस्ति. हा हा, तत् तस्मिन् विषये अपि वदन्ति, तत्र ते अपि उक्तवन्तः. तत्र केवलम् एकनिमिषं वदामि, तदनन्तरं पुनः पाठं प्रति गच्छामः. तत्र यद् वयं सर्वे चिन्तयामः, तत्र द्रौपदी हसितवती, तत्र दुर्योधनं दृष्ट्वा हसितवती, तद् सत्यं नास्ति. तत्र सा जानाति यद् धर्मं जानाति, अतः तत्र सा तादृशं न कृतवती. किन्तु दुर्योधनः धृतराष्ट्रं प्रति उक्तवान्, तत्र भीमः हसितवान्, तत्र द्रौपदी अपि आसीत्, सा अपि हसितवती, अन्ये जनाः अपि हसितवन्तः. अतः तत्र भवान् तत्र पिता तत्र तां तत्र आह्वयतु, अत्र तत्र क्रीडां कर्तुम् आह्वयतु इति. तत्र मम अवमाननम् अभवत् इति, तत् अतः तत्र सः असत्यम् उक्तवान्. किन्तु तत्र द्रौपदी तादृशं न कृतवती इति. अस्तु, इदानीं पुनः आगच्छामः अस्माकं पाठस्य समीपम्. अस्तु, तर्हि इदानीम् अग्रे तत्र हा, शुभदा भगिनी भवती अग्रे वदति वा, इदानीं तत्र वयं कुत्र स्मः? हा, तत्र कालः एव उपस्थितः अभवत् इति.
महोदय, तत् श्रुत्वा कालः एव तत्र उपस्थितः अभवत्.
हा, इदानीं तत्र पङ्क्तिशः मास्तु भगिनि, केवलं तत्र यद् लघुवाक्यम् उपयुज्य किञ्चित् वदतु. तत्र कालः, तत्र एतावत् वयं किं जानीमः, तत्र सर्पः वदति मम दोषः नास्ति, मृत्युः वदति मम दोषः नास्ति, इदानीं कालः, कालः एव, कालस्य एव दोषः इति आसीत्, इदानीं कालः अपि तत्र आगतवान. सः किं वदति?
सः सम्भाषणं शृणोति प्रथमं तु, तत् सर्वं सम्भाषणं श्रुत्वा तत्र सः उपस्थितः अभवत् तत्र. अपि च सः अवदत्, हे व्याध, तस्य बालस्य मरणे न अयं पन्नगः, न एषः मृत्युः, न वा अहं कारणीभूताः. कारणं तु अनेन कृतं कर्म एव. सः वदति तेन बालेन कृतं किमपि कृतं कर्म एव तस्य मरणस्य कारणमस्ति, न तु पन्नगः वा मृत्युः वा अहं कालः.
अतः तत्र कस्यापि दोषः नास्ति, केवलं बालकस्य कृतं, बालकेन कृतं कर्म एव कारणम्. हा, अस्तु, समीचीनं भगिनि. हा, अस्तु, तत्र श्लोकः अस्ति, तदपि किञ्चित् वदति वा तत्र श्लोकस्य प्रथमवाक्यं?
यद् अनेन कृतं कर्म तेन अयं निधनं गतः. समानमेव दत्तमस्ति श्लोकरूपेण, यत् अनेन कृतं कर्म तेन अयं निधनं गतः. अनेन इत्युक्ते अनेन एतेन बालकेन यत् कर्म कृतं तेन एव अयं निधनं गतः
तेन एव इदानीं तत्र तेन एव कर्मणा अयं बालकः निधनम्
अथवा तेन कारणेन एव
तेन कारणेन कारणं नाम अत्र कर्म इति कर्मणा तेन कारणेन एव अयं
बालकः निधनं गतः
इति समीचीनं समीचीनं भगिनि समीचीनम् अस्तु इदानीं तत्र वंशीसुधा भगिनी अग्रिमवाक्यस्य श्लोके द्वितीयवाक्यस्य किञ्चित् वदति वा विषये
विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयं तत्र विनाशहेतु कर्म अस्य सर्वे कर्मवशा वयम् इत्युक्ते तत्र सर्वेषां कर्मस्य हेतुः न विनाशहेतु यत् विनाशः अभवत् तस्य हेतुः कर्म एव अपि च सर्वेषां सर्वे कर्मवशाः भवन्ति
समीचीनं
त्यक्तुं शक्यते कर्मवशाः भवन्ति कर्म अनुभवनि अनुभवनीयः
तत्र कर्मणः वशे वयं सर्वं स्मः
महोदय अतः तत् किं वदामि
तत्र कर्मास्य इति पदस्य कर्मास्य इति अस्ति पदं तत्र कर्मास्य इत्युक्ते
कर्म अपि च अस्य इति किल
सत्यं सत्यं कर्म तत्र विनाशहेतुः कर्म अस्य कर्म तत्र बालकस्य कर्म एव तत्र विनाशहेतुः
सत्यं तदेव प्रबलः अस्ति अतः तस्य कारणेन सः मृत्युः प्राप्तवान् इति
मृत्युं प्राप्तवान् अपि तत्र केवलं सः एव तादृशः इति नास्ति किन्तु तत्र वयं सर्वे तत्र यद् सः अपि तत्र कर्मवशः अस्ति वयं सर्वे अपि कर्मवशाः स्मः समीचीनं भगिनि अपि तत्र कारणीभूताः इति तस्मिन् विषये तत्र प्रश्नः आसीत् तत्र कारणीभूताः इति तत्र रूपं कीदृशम् इति वदतु भगिनि वदतु वदतु भगिनि
तत्र कारणीभूतः अस्ति तत्र छाया आतपः इव इत्युक्ते तत्र कर्म अपि च कर्ता नित्यसम्बन्धः अस्ति छाया अपि च आतपः एते द्वे सर्वासु स्थलेषु नो चेत् सर्वासु स्थितिषु भवति वा स्थितिषु सर्वासु स्थितिषु एते द्वे सर्वे गच्छतः अतः यदा छाया भवति तदा आतपः अपि भवितुम् अर्हति यतोहि
आतपः
विना छाया नास्ति अपि च छाया आतपः विना न भवितुम् अर्हति
समीचीनं समीचीनं तादृशं तत्र यत्र यत्र कर्म अस्ति तत्र कर्ता तत्र तयोः मध्ये तत्र सम्बन्धः अस्ति समीचीनम्
अनयोः मध्ये सर्व
नित्यसम्बन्धः अस्ति समीचीनं भगिनि अपि तत्र कारणीभूतः इति पदस्य तत्र किञ्चित् वक्तुं शक्नुमः तत्र कारणीभूतः इति तत्र कारणीभूतः तत्र एतादृशं पदस्य अन्यत् पदमपि अस्ति तादृशं तत्र करोति इति तत्र स्वच्छीकरोति अथवा शुक्लीकरोति इति श्रुतवन्तः वा
च्वीप्रत्ययः किल महोदय
च्वीप्रत्ययः अस्ति
अत्रापि
तत्र कारणी भवति
तत्र च्वीप्रत्ययः अस्ति दीर्घः भवति किल
कारणी ईकारः भवति ईकारः आगच्छति तत्र कारणम् इति स्वीकृत्य तत्र शुक्लं करोति तत्र शुक्लं पूर्वं नासीत् इदानीं शुक्लम् अस्ति इति यदि वक्तुम् इच्छामः तत्र शुक्लीकरोति स्वच्छं नास्ति इदानीं स्वच्छं कृतवान् अतः तत्र स्वच्छीकरोति इति वदामः तत्र स्वच्छीकरोति छुय् प्रत्ययः इति नाम छुय् इति तत्र विशेषं नाम अस्ति अतः तत्र मनसि स्थापितुं सुलभम् अस्ति छुय् प्रत्ययः तत्र अत्रापि तत्र कारणी भवति इति रूपं तदनन्तरं तत्र भूतः इति तेन प्राप्तं किन्तु तत्र कारणी भवति इति तत्र क्रियापदं, तदनन्तरम् एतत् नामपदं कृतं. तत्र शुक्लीकृत शुक्लीकरोति इति ततः शुक्लीकृतवान् इति यथा कर्तुं शक्नुमः तादृशमेव तत्र कारणी भवति, कारणीभूतः इति. तत्र छ्वी प्रत्ययः इति अस्ति भगिनि, छ्वी इति नाम, छ्वी इति नाम तत्र, किन्तु तत्र अन्ते किं भवति, ईकारः आगच्छति, मध्ये आगच्छति तत्र
क्रूधातुतः अपि च
केवलं केवलं द्वयमेव
द्वयमेव भवति
द्वयमेव, अतः तत्र विरलतया दृश्यते. किन्तु तत्र हा किन्तु नाम तु सुलभमेव अस्ति मनसि स्थापितुं.
बहवः बहुत्र दृश्यते महोदय च्वि प्रत्यय, बहवः कथायां कथायां दृश्यते
च्वि प्रत्यय. अस्तु, तत्र एतादृशं रूपमेव तत्र करणी भवति अथवा शुक्लीकरोति स्वच्छीकरोति इति तादृशमेव. सत्यं भगिनि, हा अस्तु, तर्हि अग्रे सरामः. अस्तु, इदानीं तत्र अग्रे हा एतावत् तत्र श्रीप्रिया भगिनी भवती नासीत् अतः एव अहम् एतावत् न पृष्टवान्, किन्तु तत्र किन्तु यदि भवती तत्र तत्र सर्वम् एतत् श्रुत्वा गौतमी अवदत् इति तदेकवारं तद् परिच्छेदम् एकवारं पठित्वा किञ्चित् विवृणोति चेत् समीचीनं भवति भगिनि.
सर्वम् एतत् श्रुत्वा गौतमी अवदत्, मम पुत्रस्य मरणकारणम् एषु न कोऽपि अस्ति. मम पुत्रः स्वीयकर्मणां फलेन मृत्युं प्राप्तवान् अस्ति. ममापि तादृशकर्म एव स्यात् येन एतस्य मृत्युः समभवत्. अतः कालः मृत्युः च स्वस्थानं गच्छताम्. त्वमपि सर्पम् एतं परित्यज्य इति. बालकस्य माता वदति, गौतमी वदति, मम पुत्रस्य मरणस्य कारणकर्ता तु मृत्युः वा सर्पः वा एतेषु कोऽपि नास्ति.
तत्र ते के के उपस्थिताः सन्ति तत्र, मृत्युः सर्पः कालः अतः तेषु त्रिषु न कोऽपि
कारणकर्ता अस्ति. अतः व्याधं वदति, भवान् अपि सर्पः अपि कारणकर्ता नास्ति इति कारणेन सर्पं त्यजतु इति वदति.
हा सर्पं त्यजतु, अतः तत्र हा सर्पं त्यजतु एतस्य हा अपि तत्र स मम पुत्रः स्वीयकर्मणा
स्वस्य कर्मणा तस्य मरणम् अभवत्. अतः कर्म
तत्र अग्रे ममापि तादृशकर्म एव स्यात्
येन एतस्य मृत्युः समभवत्.
हा येन येन हा वदतु भगिनि, हा न न सत्यं वदतु भगिनि, हा ममापि
अहमपि ममापि तादृशकर्म येन तस्य मृत्युः तादृशमेव अहं कर्म मम कर्म अपि तादृशमेव अस्ति केन मम पुत्रस्य मरणम् अभवत् इति वदति.
हा अतः तत्र तत्र तस्य मरणम् अभवत् अपि मम कर्मणा फलम् अस्ति तत्र कर्मणः फलम् अस्ति तत् एतद् अहं तत्र एतत् तस्य मरणस्य मरणं पश्यामि इति तत्र एतत् आपतितम् अतः तत्र तदपि तस्य कारणमपि तत्र प्रायशः यद् अहं कृतवती तत्र कर्म यत् कृतवती तस्य फलम् अस्ति इति सा चिन्तयति. मृत्युः समभवत्, समभवत् नाम तत्र सम्भवति इति स्थाने
समभवत् इति लङ्लकारः
लङ्लकारः तावदेव. अस्तु अग्रे
एतां कथां श्रावयित्वा भीष्मः कथयत्, राजन् सर्वेपि स्वकर्मणां फलं प्राप्नुवन्ति इति ज्ञानेन गौतम्याः शोकः परिसमाप्तः. अत्रापि तथैव, त्वया दुर्योधनेन वा न किमपि अपराधम्। सर्वेपि इमे स्वकर्मणः फलम् अनुभवन्ति, अहमपि अनुभवामि, सर्वे कर्मवशाः वयम्, अतः शोकं मा कुरु इति भीष्मस्य वचनैः युधिष्ठिरः समाहितः अभवत्।
अस्तु, तत्र समीचीनमस्ति वा भगिनि, प्रश्नः अस्ति वा तस्मिन् विषये, अस्मिन् परिच्छेदे कोऽपि प्रश्नः वा?
महोदय तत्र, महोदय श्रूयते
किल? श्रूयते भगिनि।
सम् अभवत् किमर्थं? तत्र तु सम् इत्युक्ते समीचीनतया इति किल पत्र?
न न न, तत्र हा अस्तु, स्वीकृत्य भगिनि वदतु, तत्र सम् अभवत् इति रूपं किं, लकारः कः तत्र?
संयोगः अभवत्, लकारः अस्ति, परन्तु मम प्रश्नः अस्ति किमर्थं सम् इति योजितवन्तः तत्र महोदय?
सम् अभवत् नाम तत्र स निश्चयेन न जानाति खलु भगिनि, तत्र सम्भवति नाम किम्? सम्भवति अपि सम्भवति नाम तत्र सम्भावना अस्ति, तत्र प्रायशः इति अर्थे खलु। सम्यक् इति न, सम्यक् इति अर्थः अत्र नास्ति भगिनि, तत्र सा चिन्तयति खलु भगिनि, तत्र ममापि तादृशकर्म एव स्यात्, स्यात् इति तत्र न न अस्ति, तत्र स्यात् येन स्यात् इति अस्ति नाम तत्र सा चिन्तयति सम्भावना, तत्र अग्रे पश्यामः विधिलिङ्गलकारः इति तत्र सम्भावनार्थे स्यात् इति सम्भावना तत्र प्रायशः इति अर्थे, अतः तत्र येन एतस्य मृत्युः प्रायशः अभवत्, इदानीं प्रायशः स्थाने सम् अभवत्। अतः तत्र सम् नाम अत्र प्रायशः इति अर्थे तत्र स्वीकृतम् अस्ति। अस्तु अस्तु, श्रीप्रभगिनि प्रश्नः अस्ति वा अन्तिमपरिच्छेदे?
प्रथमवाक्यस्य किञ्चित् विवरणं दातुं शक्नोति वा महोदय? सर्वेपि स्वकर्मणां फलं तत् प्राप्नुवन्ति, तत् परं सम्यक् इति ज्ञानेन गौतम्याः शोकः। ओ अस्तु अस्तु,
हा इति ज्ञानेन, ज्ञानेन इति कारणम् अस्ति, ज्ञानेन, ज्ञानेन किम् अभवत्? गौतम्यः शोकः परिसमाप्तः, तत्र परिसमाप्तः विशेषणमस्ति, शोकः परिसमाप्तः नाम तस्य शोकस्य समाप्तिः अभवत्, तत्र शोकः परिसमाप्तः इति, शोकः इदानीं नास्ति, समाप्तः, तस्य समाप्तिः अभवत्, शोकस्य समाप्तिः अभवत् गौतम्याः, कस्याः? गौतम्याः शोकः। हा तत्र ज्ञानेन, ज्ञानेन शोकः अपगच्छति इति।
अपराधम् इत्युक्ते क्रियापदं किं महोदय? अत्र तु कर्मणि
अपराधं न न न, दुर्योधनेन किमपि अपराधं तत्र प्रायशः तत्र अपराधम् इति तत्र कृतम् इति, न अपराधं कृतं, त्वया अपराधं न कृतं, दुर्योधनेन वा अपि किमपि अपराधं न कृतम् इति।
परन्तु अत्र तु किमपि क्रिया धातुः भवितुमर्हति,
अपराधं तत्र प्रायशः कृतम् इति स्थापितं, कृतम् अस्ति अथवा कृतम् आसीत्, कर्मणि प्रयोगे इति, तत्र अस्ति 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 अथवा अपराधम् अस्ति इति प्रायशः स्थापितुं शक्नुमः भगिनि, दुर्योधनेन न किमपि अपराधम् अस्ति अथवा कृतं, कृतं कृतम् अपि तत्र यदि स्थापयामः समीचीनं भवति इति मन्ये। हा
आमां महोदय सत्यं, परन्तु किमपि धातुः केचन
हा सत्यं तत्र हा हा सत्यं सत्यं, किन्तु तत्र हा तत्र अर्थः अर्थः तत्र सरलः अस्ति इति चिन्तयित्वा प्रायशः तत्र किमपि न स्थापितवन्तः, किन्तु तत्र किमपि अपराधं न किमपि अपराधं कृतं कृतम् इति। अस्तु तर्हि तत्र शोकं मा कुरु, अस्तु इदानीं तत्र प्रायशः तत्र अनेकवारं वयं कथां दृष्टवन्तः, किन्तु तत्र अनेकाः अंशाः, अनेके अंशाः सन्ति, अतः तत्र यदि द्विवारं कुर्मश्चेत् प्रायशः तत्र दोषः नास्ति इति चिन्तनम्। अस्तु तर्हि इदानीं तत्र अयम् इति शब्दस्य तत्र किञ्चित् अभ्यासः जातः कथायाः अपि पुनस्मरणं जातः इदानीं तत्र अग्रे सरामः. तत्र अग्रे किम् अस्ति तत्र वदतु भगिनि.
समाहितः समाधानं प्राप्तवान् इति भवति वा?
समाधानं हा सत्यं भगिनि हा समाधानं प्राप्तवान् हा युधिष्ठिरस्य समाधानं प्राप्तं हा युधिष्ठिरः समाधानं प्राप्तवान् हा समाहितः तत्र पूर्वमपि आसीत् तत्र समाहितः न आसीत् इति हा तदेव अस्ति भगिनि हा समाधानं न प्राप्तवान् इति. अस्तु तर्हि अग्रे सरमः तर्हि तत्र अस्तु तत्र किं
हा कृतवन्तः
प्रथमं प्रथमं कृतवन्तः अस्तु भगिनि कृतवन्तः अस्तु अपि तत्र द्वितीय अभ्यासः तत्र किमपि नास्ति अस्तु अतः तृतीय अभ्यासः. प्रिया भगिनी इदानीं श्रूयते किं
प्रिया भगिनी
इदानीं श्रूयते भगिनि अस्तु अस्तु तृतीय अभ्यासं करोतु भगिनि.
यथोदाहरणम् एतत् शब्दस्य तत् शब्दस्य वा उचितरूपैः रिक्तस्थानानि पूरयत. तद् एतद् एतत् भवनं सुन्दरम् अस्ति इति. भगवद्गीता पुस्तिका सुन्दरी अस्ति. एषा भगवद्गीता पुस्तिका सुन्दरी अस्ति.
हा समीचीनं भगिनि हा अस्तु अग्रे.
एतस्य ग्रन्थस्य कर्ता वेदव्यासः.
समीचीनम् अस्तु अग्रे.
अत्र अहं तद् उपयोगं करोमि. तस्याः गीतायाः उच्चयनेन शान्तिः लभ्यते.
एतस्याः गीतायाः अथवा तस्याः गीतायाः अध्ययनेन शान्तिः लभ्यते. समीचीनं भगिनि अग्रे.
तं योगम् अहं
तत्र इदं शब्दस्य अपि उपयोगं कुर्मः वा तत्र एषः अपि च एतद् अपि
तत्र अस्तु तत्र यदि पुल्लिङ्गे अस्ति चेत् जानीमः अस्तु तत्र यत्र पुल्लिङ्गे अथवा नपुंसकलिङ्गे अस्ति चेत् तत्र इदम् इति शब्दस्य अपि प्रयोगं कुर्मः
वक्तव्यं चेत् तत्र
सत्यं सत्यं भगिनि हा सत्यम् अस्तु तत्र अस्तु.
ततः द्वितीयवाक्यस्य अस्य ग्रन्थस्य कर्ता वेदव्यासः इति अस्ति.
अस्य समीचीनं इदानीं तृतीयवाक्ये तु स्त्रीलिङ्गम् अस्ति.
चतुर्थवाक्यं तम् इति अहम् उक्तवती. अत्र इमं योगम् अहं विवस्वते प्रोक्तवान्.
तत्र योगः अथवा योगं कोऽपि स्मरति वा पुल्लिङ्गपदं वा इति
चतुर्थ अध्याये इमं योगमेव भगवान् अपि उक्तवान्.
अस्तु धन्यवादः भगिनि अस्तु अस्तु इमं योगम् अहं विवस्वते प्रोक्तवान्. विवस्वते इति विभक्ति का तत्र विवस्वते चतुर्थी कस्मै प्रोक्तवान् विवस्वते प्रोक्तवान्. समीचीनं भगिनि हा अस्तु अग्रे.
अग्रे तद् शब्दस्य अस्ति तस्मिन् लोके द्विविधा निष्ठा भवति. अस्मिन् लोके द्विविधा निष्ठा भवति
हा समीचीनं भगिनि अस्तु अग्रे.
अग्रे एतेषु योगेषु जनानां श्रद्धा अस्ति. नास्ति चेत् एषु लोकेषु जनानां श्रद्धा अस्ति.
हा बहु समीचीनं भगिनि अस्तु हा धन्यवादः भगिनि अस्तु धन्यवादः भगिनि अस्तु. इदानीं तत्र अग्रे वेदा भगिनी अग्रे वदति वा?
आं महोदय. महत् ब्रह्मणि अहं गर्भं ददामि. महत् ब्रह्मणि अहं गर्भं ददामि. तत्र महत् ब्रह्मणि सप्तमी विभक्ति. एतस्मिन् अस्मिन् महत् ब्रह्मणि अहं गर्भं ददामि और एतस्मिन्
हा प्रायशः सप्तमी एव अस्ति इति मन्ये.
ब्रह्मणि ब्रह्मण शब्दस्य सप्तमी विभक्ति
अस्तु अस्तु अग्रे.
अर्जुन दुर्योधनाभ्यां भीष्मः उपदेशं कृतवान् अर्जुनदुर्योधनाभ्यां तत्र द्विवचने षष्ठीविभक्ति न षष्ठी न तत् पञ्चमीविभक्ति वा अभ्यां न अर्जुनदुर्योधनाभ्यां भीष्मः ओके टु
किन्तु तत्र रूपं रूपं तु समानमेव किन्तु अर्थः भवतु इति हा इति पृष्टवान् तावदेव अस्तु हा
चतुर्थी विभक्तिः तत्र दुर्नोभ्यां भीष्मः उपदेशं कृतवान् तत्र किं चतुर्थी विभक्ति आभ्यां वा
आभ्यां हा आभ्यां समीचीनं भगिनि हा
आभ्याम् अर्जुनदुर्योभ्यां भीष्मः उपदेशं कृतवान् देहे अहं देवान् पश्यामि देहे
प्रश्नः आसीत् वा तत्र
आभ्याम् आभ्याम् एतभ्याम् अपि भवितुमर्हति
सत्यं हा
तद् अपि एतद् शब्दः महोदय तत्र ताभ्यामपि एताभ्याम्
एताभ्यामपि सत्यं भगिनि
आभ्याम् आभ्यां न भवति
अभ्यासं कुर्मः इति इदं शब्दस्य अपि रूपं स्थापितं तावदेव अस्तु
देहे अहं देवान् पश्यामि देहे अहं देवान् पश्यामि अस्मिन् देहे वा
अस्मिन् एतस्मिन् तस्मिन्
तस्मिन् देहे अहं देवान् पश्यामि उपदेशान् अहम् उक्तवान् तान् उपदेशान् अहम् उक्तवान् तान्
अथवा तत्र इदं शब्दमस्ति चेत् तत्र उपदेशः इति इमान् इमान्
इमान् इमान् एन इमान्
उपदेशान्
इमान् उपदेशान् अहम्
उक्तम् उक्तवान् समीचीनं भगिनि अस्तु धन्यवादः अस्तु अग्रे तत्र ललिता भगिनी अग्रे वदति वा
एषु पाण्डवेषु कृष्णः स्निह्यति एषु अथवा तेषु
हा एषु अथवा तेषु एतेषु
एतेषु
एतेषु अस्तु समीचीनं भगिनि अग्रे
अध्यायं पठ इमम् अध्यायं पठ
हा इमं
द्वितीयविभक्ति
समीचीनं हा इमम् अध्यायम्
अथवा तं तम् अध्यायं पठ
समीचीनं हा अग्रे
अध्याये योग्यः विचारः अस्ति अस्मिन् अध्याये योग्यः विचारः अस्ति अस्मिन् अथवा एतस्मिन्
समीचीनं भगिनि अग्रे
दिवसे तत् ज्ञानं
तत्
दिवसे तत् ज्ञातवान् तस्मिन् दिवसे तत् ज्ञातवान् अथवा अस्मिन् अस्मिन् डेश् दात्वा कार्यं कुरु इमं ज्ञात्वा कार्यं कुरु अथवा इदं ज्ञात्वा
हा प्रायशः तत्र यदि सत्यं भगिनि हा तत्र इदम् अथवा इमम् इति द्वयमपि ज्ञात्वा यतोहि तत्र ज्ञात्वा इति तत्र क्रियासूचकमस्ति तत्र कर्मपदं हा तत्र तस्य कर्मपदं भवेत् इति कृत्वा तत्र द्वितीयरूपं समीचीनं भगिनि धन्यवादः अस्तु धन्यवादः भगिनि अस्तु अग्रे इदानीं सरामः तत्र सुजाता भगिनि हा वदतु
ब्रह्मणि इति ब्रह्म ब्रह्मणि ब्रह्माणि इति
अतः तत्र बहुवचने अस्ति वा भगिनि तत्र
ब्रह्माणि इति अस्ति चेत् सप्तमी विभक्त्यामेव अस्ति खलु ब्रह्माणि इति भवति खलु
ब्रह्म ब्रह्मणि
ब्रह्माणि सप्तमी
ब्रह्मणि इति सप्तमी किन्तु तत्र प्रथमविभक्तौ रूपं किं भवति
ब्रह्मणि ब्रह्मणि ब्रह्माणि
ओ अस्तु अस्तु तत्र हा अस्तु तत्र द्विवचनमपि भवितुम् अर्हति इति प्रथमापि द्वितीया विभक्ति द्विवचने अपि भवितुम् अर्हति इति अस्तु अस्तु
महोदय ब्रह्म ब्रह्मणि इति दीर्घरूपेण
ओ दीर्घरूपम् अस्ति हा धन्यवादः भगिनि हा अतः एव मम क्लेशः अस्ति तत्र द्विवचने भवति वा इति हा हा अतः अस्तु तत्र अस्तु समीचीनं हा ब्रह्मा अस्ति चेत् हा अस्तु अस्तु समीचीनं भगिनि. तत्र सप्तमी एव सप्तमी एव अत्र समीचीनम् अस्ति. अस्तु अस्तु धन्यवादः भगिनि. अस्तु धन्यवादः. अस्तु सुजाता भगिनि अग्रिमम् अभ्यासम् आरम्भं करोति वा भगिनि?
आं महोदय. अधः काचित् कथा दत्ता अस्ति, तत्र मध्ये मध्ये कानिचित् स्थानानि रिक्तानि सन्ति. तद् शब्दस्य उचितैः पुंलिङ्गरूपैः तानि स्थानानि पूरयत. सः कश्चन सन्यासी प्रतिदिनं समुद्रतीरे उपविश्य ध्यानकरणं सः सन्यासिनः
सन्यासिनः इति विभक्ति का अस्ति? सन्यासी इति अस्ति. सन्यासी अस्ति चेत् तत्र प्रतिपदिकं किं? सन्यासी इति प्रथमविभक्तिरूपम् अस्ति.
सन्यासिन्
इति अस्ति प्रातिपदिकं. तत्र सन्यासिन् अस्ति चेत् तत्र सन्यासिनः इति विभक्ति का तत्र? षष्टिविभक्ति. हा अतः सन्यासिनः सः सन्यासी. इदानीं सन्यासिनः इति षष्टि अस्ति, अतः सन्यासिनः इति पदात् पूर्वं किं भवति? अस्य षष्टि अस्य अथवा तस्य अस्य अथवा तत्र तत्र सः इति उक्तम्, अतः तत्र तस्य इति एव स्वीकुर्मः. नो चेत् अयं सन्यासी अस्य सन्यासिनः, किन्तु षष्टि समीचीनं. तस्य सन्यासिनः अभ्यासः. तत्र सन्यासिनः अभ्यासः नाम सः एतत् प्रतिदिनं करोति. किं करोति? समुद्रतीरे उपविश्य ध्यानं करोति. तत्र प्रतिदिनम् एतदेव सः करोति. अग्रे
समये तस्मिन् समये सागरपक्षिणः तत्र आगत्य ध्यानमग्नं परितः ज्ञानमग्नं
परितः अस्ति चेत् तत्र विभक्ति का अपेक्षिता?
परितः
तत्र उप
तृतीय
द्वितीया अतः तत्र सन्यासी अस्ति चेत्
सन्यासी अस्ति चेत् इमं परितः न
समीचीनम् इमं परितः इमं किन्तु तत्र सन्यासी अपि तत्र स्थापितुम् इच्छामश्चेत् तत्र इमं सन्यासिनं
परितः
परितः
डयन्ते स्म.
के डयन्ते स्म?
पक्षिणः.
सागरपक्षिणः डयन्ते स्म समीचीनं. अग्रे
केचन पक्षिणः सन्यासिनः
स्कन्दयोः पुनः सन्यासिनः इति विभक्ति का तत्र?
केचन सन्यासिनः षष्टिविभक्ति.
अतः तत्र अस्य अथवा एतस्य सन्यासिनः स्कन्दयोः
उपविश्य क्रीडन्ति
उपविश्य अपि क्रीडन्ति
स्म.
तत्र स्कन्दयोः इति अस्ति विभक्ति का तत्र? स्कन्दयोः
विभक्ति द्वितीय
द्विवचनम्
स्कन्दयोः षष्टी द्विवचनम् अस्ति.
षष्टी भवितुमर्हति, सप्तमी अपि भवितुमर्हति, किन्तु तत्र भवती दृष्टवती खलु तत्र समुद्रतीरे उपविश्य नाम कुत्र उपविश्य, अतः अपि तत्र स्कन्दयोः उपविश्य नाम स्कन्दयोः सप्तमी अस्ति. तत्र कुत्र उपविश्य स्कन्दयोः नाम स्कन्दे इति एकवचने स्कन्दे उपविश्य अथवा स्कन्दयोः स्कन्दद्वयम् अस्ति इति कृत्वा स्कन्दयोः उपविश्य अपि क्रीडन्ति स्म. सन्यासिनः
तु पक्षिणां विषये
पक्षिणां पक्षिणाम् इति विभक्ति का तत्र
पक्षिणां षष्ठी बहुवचनम् अस्ति
अतः तत्र एषाम् अथवा तेषां
तेषां पक्षिणां विषये अवधानम् एव न आसीत्
संन्यासिनः अवधानम् एव नासीत् नाम तत्र तस्य अवधानम् एव नासीत् नाम तत्र तत्र पक्षी अस्ति न वा ते किं कुर्वन्ति इति एव सः न लक्षितवान् अस्तु समीचीनं भगिनि धन्यवादः अस्तु अग्रे वंशीसुधा भगिनि अग्रे
महोदय कदाचित् कश्चन युवा तत्र आगतवान् संन्यासिनं नमस्कृत्य सः संन्यासिनं नमस्कृत्य उक्तवान् सः एव
तत्र संन्यासिनम् इति तत्र सः संन्यासी अस्ति चेत् तत्र संन्यासिनम् इति प्राक् सः संन्यासी इदानीं संन्यासिनम् अस्ति चेत् तं संन्यासिनम्
ओ अस्तु सत्यं
सः तं संन्यासिनं नमस्कृत्य
उक्तवान् स्वामी भवन्तं परितः तावन्तः समुद्रपक्षिणः क्रीडन्ति खलु स्वामिन् भवन्तं परितः पूर्वं तु द्वितीया विभक्ति अपेक्षिता अतः भवन्तं तावन्तः समुद्रपक्षिणः इति पक्षि तत्र तु प्रथमा विभक्ति बहुवचन अस्ति किल
पक्षि तत्र तावन्तः पक्षिणः तत्र तावन्तौ तावन्तः
तत्रापि प्रथमा विभक्तौ अस्ति तावन्तः समुद्रपक्षिणः क्रीडन्ति खलु अस्तु पक्षिषु एकः पक्षः तत्र पक्षिषु एकं पक्षिणः गृहीत्वा मह्यं
पक्षिणं गृहीत्वा
तस्मिन् तेषु पक्षिषु
अथवा येषु पक्षिषु अथवा तेषु पक्षिषु
एकं पक्षिणं गृहीत्वा तत्र त्वाप्रत्ययात् पूर्वं द्वितीया विभक्ति अपेक्षितं पक्षिणं गृहीत्वा मह्यं ददातु इति शब्दस्य चतुर्थी भवति अतः मह्यं ददातु चतुर्थी विभक्ति अस्ति मह्यं ददातु इति संन्यासी अस्तु इति उक्तवान् ध्यानार्थम् उपविष्टः ध्यानार्थम् उपविष्टवान् च तत्र तु
संन्यासी
परन्तु अहो आश्चर्यं दिने एकः अपि तस्मिन् दिने इति सप्तमी विभक्ति अस्ति तत्र तस्मिन् दिने एकः अपि पक्षी संन्यासिनं समीपं नादक
संन्यासिनः समीपं
परन्तु तत्र तस्मिन् दिने एकः अपि पक्षी तत्र किमपेक्षा संन्यासिनः समीपं नातः पक्षिणः संन्यासिनः न
तत्र न पक्षी संन्यासिनः इति विभक्ति का
तत्र तु षष्ठी अस्ति न
अतः तत्र तस्य संन्यासिनः समीपम् अथवा अस्य संन्यासिनः समीपं
तत्र तेन विनापि सम्यक् भवति पक्षी संन्यासिनः समीपं
सत्यं सत्यं तत्र तस्य अथवा अस्य संन्यासिनः समीपं
नागतः
समीचीनं अग्रे
सर्वेपि संन्यासिनः भीताः इव दूरे सर्वेपि पक्षिणः
सर्वे अपि तत्र तत्र इमं किम् अयम् इमौ इमेति तत्र सर्वेपि इमे सर्वे अपि इमे
पक्षिणः संन्यासिनः भीताः इव दूरे एव डयन्ते स्म
दूरे एव ध्यायन्ते स्म तत्र संन्यासिनः भीताः नाम संन्यासिनः अत्र षष्ठी नास्ति किन्तु पञ्चमी भीतः अस्ति इति कृत्वा समीचीनं भगिनि अस्तु अग्रे
तस्मात् अपि आगच्छति न महोदय सर्वे अपि पक्षिणः तस्मात्
समीचीनं सर्वे अपि ते पक्षिणः तत्र तस्मात् अथवा अस्मात् संन्यासिनः समीचीनं भगिनि अस्मात् संन्यासिनः भीताः इव दूरे एव धयन्ते स्म केवलम् एक अथवा निमेषद्वये समापयामः अस्तु अग्रे
संन्यासिने क्रुध्यन्तः इव ते दूरे एव स्थितः संन्यासिने कृत्यन्तः ते
संन्यासिने इति विभक्ति का तत्र
संन्यासिने इति सप्तमी भवति वा तत्र संन्यासिने
तत्र भवत् शब्दस्य रूपाणि स्मरन्तु
क्षम्यतां भवत् नकार
तस्मै अथवा अस्मै
तस्मै क्रुध्यते अस्तु किल चतुर्थविभक्ति भवति धातुतः तस्मै संन्यासिने क्रुध्यन्तः इव
क्रुध्यन्तः इव
ते दूरे एव स्थिताः
ते पक्षिणः दूरे एव स्थिताः
पक्षिणां व्यवहारं दृष्ट्वा सन्यासी नितरां विस्मितः अवदत् पक्षिणाम् इति बहुवचनरूपमस्ति एतान् पक्षिणां
न तेषां तेषां
षष्टि ओके तेषां तेषां पक्षिणां व्यवहारं दृष्ट्वा सन्यासी नितरां विस्मितः अभवत् अस्तु
तत्र तस्य सः चकितः अभवत् तत्र आश्चर्यं तस्य आसीत् तत्र आश्चर्यः हा किमर्थम् एतद् अभवत् वा इति सः तत्र चकितः विस्मितः अभवत् सः
ततः यदि मम मनसि दुर्भावनाः भवन्ति तर्हि पक्षिणः मम समीपं न आगच्छन्ति तर्हि
इमे पक्षिणः
बहुवचनं प्रथमविभक्ति बहुवचनं इमे पक्षिणः मम समीपं न आगच्छन्ति इति सः ज्ञातवान्
अतः सः ज्ञातवान् यत् तत्र पक्षिणः तत्र मनसि किम् अस्ति इति तत्र दुर्भावना अस्ति न वा इति ते जानन्ति इति सः ज्ञातवान् समीचीनं भगिनि अस्तु अस्तु तर्हि तत्र केवलम् एकं सम्भाषणम् अस्ति तदनन्तरं तत्र अग्रिमवर्गे तत्र स्त्रीलिङ्गे तत्र इदं शब्दस्य स्त्रीलिङ्गरूपाणि अग्रिमवर्गे पश्यामः अस्तु तर्हि तत्र तत्र शुभदा भगिनी तत्र अन्ते तत्र शान्तिमन्त्रं वदति वा भगिनि अस्तु अस्तु नो चेत् वंशीसुत भगिनी भवती एव वदतु
ॐ पूर्णमिदः पूर्णमदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः महोदय
धन्यवादः भगिनी धन्यवादः सर्वेभ्यो नमः सर्वेषां धन्यवादः अग्रिमवर्गे मिलामः नमस्कारः
धन्यवादः
भगिनी धन्यवादः